एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सभामुखेन देवराज घिमिरेभिदेन प्रमुखैः पञ्चभिः दलैः सदनस्य अवरोधम् समापयितुम् विमृष्टम् वर्तते। बानेश्वर स्थाने ह्य सम्भूते विमर्शने विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया, उपसभामुख इन्दिरा राणा, एमाले दलस्य मुख्य सचेतक पदीय महेश बर्तौला, नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीय श्याम कुमार घिमिरे, माओवादी केन्द्रस्य प्रमुख सचेतक पदीय हितराज पाण्डेय, राष्ट्रिय स्वतन्त्र दलस्य प्रमुख सचेतक पदीय सन्तोष पदीय परियार, राष्ट्रिय प्रजातन्त्र दलस्य प्रमुख सचेतक पदीय ज्ञानबहादुर साई च सहभागिनः आसन्। सभामुखेन घिमिरेभिदेन संसदः अवरोधस्य समापनस्य विषये गृहमन्त्रिणा रमेश लेखकेन सत्तापक्षस्य मुख्य सचेतक पदीयेन बर्तौलाभिदेन, रासोपा दलस्य प्रमुख सचेतक पदीयेन परियारेण च सहापि पृथक पृथक विमृष्टम् आसीत्। अत्रान्तरे राष्ट्रिय स्वतन्त्र दलस्य सांसदानां विरोधस्य कारणेन अर्धघण्टाया कृते स्थगितः प्रतिनिधि सभाया ह्यस्तनोपवेशः, ततः परं पुनः ह्य उपवेशनेन विनैव स्वबृहस्पतिवासरं यावत् स्थगितो वर्तते। प्रारम्भे अर्धघण्टाया कृते स्थगितः उपवेश अपराह्नस्य चतुर्वादनाय पुनः निर्धार्य उपवेशः उपवेक्षतीति उक्तम्। सदपि दलेषु सहमते धरणाभावानन्तरं सूचनां प्रकाश्य स्वस्तनाय दिवसाय उपवेशं निर्धार्य ह्यस्तनोपवेशः स्थगितोऽस्ति। तत्पूर्वं ह्यस्तनोपवेशस्य प्रारम्भणस्य अनुपदमेव रासोपा दलस्य सांसदेन चन्दा कार्की इत्यनया समयं प्रयाच्य पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणस्य अनुसन्धानाय उच्चस्तरीयानुसन्धान समितिं संघटयितुम् अभियाचितम् आसीत्। तत्पश्चात् सभामुखेन देवराज घिमिरेभिदेन नेपाली कांग्रेस दलस्य सांसदाय प्रमुख सचेतक पदीयाय श्याम घिमिरे इत्यस्मै समयस्य प्रदानानन्तरं घिमिरे इत्यनेन नियमापत्तिं प्रदर्श्य संसदं मर्यादितां विधातुं सभामुखस्य ध्यानाकर्षणं विहितम् आसीत्। उपवेशे प्रमुख सचेतक पदीयेन घिमिरे इत्यनेन रासोपा दलस्य सांसदैः दलस्य स्वकीय वस्त्रचिह्नस्य रूपेण प्रयुज्यमानं नीलरंगस्य वस्त्रं गले सन्धार्य मर्यादा विपरीतं कार्यं विहितमिति नियमापत्तेः प्रदर्शनस्य पश्चात् सभामुखेन देवराज घिमिरेभिदेन उपवेशः स्थगितीकृतः आसीत्। प्रतिनिधिसभायाः अपरोपवेश आषाढमासस्य पञ्चमे दिवसे बृहस्पतिवासरे पूर्वाह्नस्य एकादशवादने उपस्था। प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षं सुवर्ण रजत व्यवसाय सम्बद्धानां संघ संस्थानां प्रतिनिधिनां नेतृत्वेन आगामिनः आर्थिक वर्षस्य आव्ययके सुवर्ण रजत व्यवसाय प्रतिशतं द्वाभ्यामंकाभ्यां विलासितायाः करस्य ग्रहणस्य व्यवस्थां प्रति ध्यानाकर्षणं विहितमस्ति। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य सम्भूते मेलने नेपाल सुवर्ण रजत महासंघस्य अध्यक्षेण किसान सुनार इत्यनेन सहितेन समूहेन विलासितायाः करस्य व्यवस्थायां सत्यां सुवर्ण रजतयोः व्यवसायस्य समाप्तेः सम्भवात् पुनः विशेष्यस्य विचारार्थं याचना विहितास्ति। प्रधानमन्त्री ओली संवादस्य माध्यमेन समस्यायाः समाधानम् अन्वेष्टुम् आत्मना सम्बद्ध मन्त्रालयात् वस्तुस्थितिं विज्ञाय यथासम्भवं याचनां सम्बोधयितुं प्रयतिष्यते इति तदवसरे प्रावोचत्। राष्ट्रिय सभाया विधायन व्यवस्थापन समित्या कांश्चित नेपालाधिनियमान् संशोधयितुम् निर्मितम् अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् विधेयकमाधृत्य प्रकरणगतम् विमर्शनम् समाप्तिकृतम् वर्तते। समिते ह्यस्तनोपवेशे कांश्चित नेपालाधिनियमान् संशोधयितुम् निर्मितम् विधेयकमाधृत्य विहिते प्रकरणगत विमर्शने विवादितस्य भूजलाधार संरक्षणाधिनियमस्य श्रमाधिनियमस्य च विषयम् निष्कर्षे नेतुम अवशिष्टेषु विषयेषु सम्बद्धैः मन्त्रालयैः सह विमृष्टम् वर्तते। विमर्शने श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयस्य सचिव डाक्टर कृष्ण हरिपुष्करः विश्वस्य यस्मिन् कस्मिन्नपि देशे कार्यरतस्य नेपाली श्रमिकस्य सामाजिक सुरक्षायाम् आबद्धतायाः अनुकूलनत्वेन प्रमुखे अधिनियमे संशोधनम् कर्तुम् ईप्सितमस्तीति अगदत्। एवमेव वन वातावरण मन्त्रालयस्य सचिव डाक्टर राजेन्द्र प्रसाद मिश्र कांश्चित नेपालाधिनियमान् संशोधयितुम् निर्मिते विधेयके भूजलाधार संरक्षणाधिनियमस्य संशोधन प्रस्तावस्य विषये समस्पष्टयत्। समितेः सभापति तुलसा कुमारी दाहाल कतिपयान् प्राविधिक विषयान् संयोज्य आगामिना उपवेशेन विधेयकमिदम् पारितीकरिष्यते इति असूचयत्। विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया विधि व्यवसाय परिषदा सम्बद्धम् गत विक्रमवर्षीयम् द्वितीय संशोधन विधेयकम् आदृत्य सम्बद्धै पक्षै सह पर्याप्तम् विमर्शनम् विधाय विधेयकाय पूर्णताम् प्रदातुम् बलम् ददाति। प्रतिनिधिसभाया विधि न्याय मानवाधिकार समिते ह्यस्तनोपवेशे विधेयकम् आधृत्य संशोधन प्रस्तावम् प्रस्तुतवद्भिः सांसदैः सह विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरेण सम्बद्धानाम् विज्ञानाम् परामर्शस्याधारेणैव विधेयकमिदम् अग्रे वर्धिष्यते इति समस्पष्टयत्। तदवसरे नेकपा माओवादी केन्द्रस्य प्रमुख सचेतक पदीय हितराज पाण्डे विधि व्यवसायी परिषद सम्बद्ध विधेयके महिलानाम् सहभागिता या सहिव सूचना संचार प्रविधिमपि समावेष्टुम् अभ्ययाचत। वन वातावरण मन्त्री ऐनबहादुर साई ठकुरी गत ज्येष्ठ मासे काष्ठमण्डपे सम्पन्नस्य सगरमाथा संवादस्य निष्कर्षम् क्रियान्वेतुम् सर्वकारः कार्ययोजनाम् निर्माय अग्रे वर्धितोस्तीति सूचयति। ह्यः काष्ठमण्डपे आयोजितस्य पोस्ट सगरमाथा संवाद इति कार्यक्रमस्य उद्घाटनावसरे वनमन्त्री साई संवादस्य पञ्चविंशत्यात्मक सगरमाथा आह्वानस्य क्रियान्वयनाय सम्बद्धै सर्वैः पक्षैः सह समन्वयम् विधाय अग्रे वर्धितम् अस्तीति असूचयत्। कार्यक्रमे राष्ट्रियसभायाः राज्यस्य निर्देशक सिद्धान्त नीति दायित्वानाम् क्रियान्वयानुगमन मूल्यांकन समितेः सभापति ठाकुर प्रसाद गैरे संवादेन नेपालस्य जलवायुभ्याम् हिमालयेषु सृष्टस्य प्रभावस्य विषये विश्व समक्षम् ध्यानाकर्षणम् विधातुम् सफलता प्राप्तेति उक्तवान् आसीत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड पर्यटनाय देशान्तर प्रवेशानुज्ञा पत्र प्रकरणस्य समस्या साम्प्रतिकीयैव नास्तीति उक्तवान् वर्तते। प्रेस सेन्टर नाम्नी संस्थाया चितवञ्जन पदशाखया ह्य दाहाल निवासे शिवनगरे आयोजिते पत्रकार सम्मेलने अध्यक्षो दाहाल पर्यटनाय देशान्तर प्रवेशानुज्ञा पत्र प्रकरणस्य समस्या चतुष्षष्ट्युत्तर द्विसहस्रतम विक्रम वर्षादेव अस्ति प्रकरणेऽस्मिन् अनुसन्धानम् सुधारस्य विधातव्यौ स्तः इति उदैरयत्। अध्यक्ष प्रचण्ड आयव्ययकम् पारितिकर्तव्यम् संघीय सर्वकारीयाधिनियम विद्यालय शिक्षाधिनियमश्च पारिति कर्तव्यौ शान्ति प्रक्रियाया अवशिष्टानि कार्याणि पूरणीयानि च सन्तीति दायित्वानाम् बोधः पुरस्सरम् त्रिंशतो दिनानाम् अभ्यन्तरे समितेः संघटनस्य शपथे संसदः अवरोधम् निरस्तीकर्तुम् सहमत्यध्यतास्तीति समस्पष्टयत्। ऊर्जो मन्त्री दीपक खड्का मन्त्रालयस्य अन्तर्गतानाम् निकायानाम् कार्याणि सन्तोषजनकानि न सन्तीति उक्तवान् अस्ति। ऊर्जो मन्त्रालये ह्य उपवेशे मन्त्री खड्का वर्तमानार्थिक वर्षस्य एकादश मासानाम् समाप्तेः पश्चादपि मन्त्रालयात् अन्तर्गतेभ्य निकायेभ्यश्च सन्तोषजनकानि कार्याणि सम्भूतानि न सन्तीति चर्चयन् गभीराः सन्त कार्येषु प्रवर्तनाय कर्मचारिणः निरदिशत् इति समाचाराः।